अस्तु तर्हि सर्वेषां स्वागतम्. अद्यतनविषयः धातुपाठे हल्सन्धिः. अयं विषयः अत्यन्तम् आसक्तिकरः, अत्यन्तं व्यावहारिकः च, किञ्चित् समयः व्यतीतः यदा वयं अन्तिमवारं कृतवन्तः, अतः किञ्चित् तदर्थं किञ्चित् पुनस्मरणम् अपेक्षितम्. अयम् अत्र सन्दर्भः कः? हल्सन्धिः धातुपाठे विशिष्टविषयः किमर्थम्? अत्र एतावता अस्माभिः बहु किमपि पठितमस्ति. यत्र अङ्गम् अदन्तमस्ति, नाम भुवादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च, अपि च यत्र अङ्गम् अनदन्तमस्ति, नाम अदादि, जुहोत्यादि, स्वादि, तत्र रुधादि, तनादि, क्रियादि, तत्र रुधादि अस्माभिः न कृतम् एतावता, वयं करिष्यामः, किन्तु तत्र अङ्गम् अनदन्तं भवति. एतावता अस्माभिः न दृष्टं हल्सन्धेः आवश्यकता इति. एकवारम् आं जुहोत्यादिगणे दाधातुः धाधातुः च, तत्र सन्दर्भः आगतः एकवारं, केवलम् एकवारं, नो चेत् सर्वत्र यत्र धातुः आसीत्, अपि च नाम क्रियपदस्य निर्माणार्थं वयं तु जानीमः खलु यत् धातुः अस्ति, धातुः इदानीं सार्वधातुकप्रकरणमिति विषयः, सार्वधातुकप्रकरणं नाम लोट् लकारः, क्षम्यतां, लट् लोट् लङ् विदि लिङ्, एषु चतुर्षु लकारेषु रूपाणि कीदृशानि भवन्ति इति अस्माकम् अवधानम् इत्यस्मिन् अस्माकम् अवधानम् अस्ति इदानीं खलु. तर्हि तत्र धातुः अस्ति, विकरणप्रत्ययः अस्ति, अपि च तिङ्प्रत्ययः अस्ति. उदाहरणार्थं पठ् इति धातुः, विकरणप्रत्ययः शप् अनुबन्धलोपे तत्र अ अवशिष्यते, तर्हि पठ् अ योजनेन पठ, अनन्तरं लटि ति, पठ ति, खलु. तत्र पठ् इति धातुः विकरणप्रत्ययः अ, पठ् अ, तत्र सन्धिकार्यमस्ति वा? नास्ति खलु, केवलं वर्णमेलनमस्ति, पठ् अ, पठ, सन्धिकार्यं तु नास्ति एव तत्र. अनन्तरं पठ ति पुनः, नाम धातुः अनन्तरं विकरणप्रत्ययः, तयोः मेलनेन केवलं वर्णमेलनमस्ति. पुनः अङ्गं यत् निष्पन्नमस्ति पठ इति, यत्र ति प्रत्ययः भवति लटि, पठति, तत्रापि केवलं वर्णमेलनमस्ति, तत्रापि केवलं वर्णमेलनमस्ति. तर्हि एतावता वर्णमेलनं जातं बहुत्र. अनन्तरं कुत्रचित् अच् सन्धिः भवति स्म, उदाहरणार्थं तत्र पठ इति अङ्गं, पठ इति अङ्गम् अस्ति, अनन्तरम् आनि लोटि आनि इति अस्ति, पठ आनि पठानि, तत्र पठ अकारः अस्ति, अपि च आनि तत्र आकारः अस्ति, द्वयोः मेलनेन कः सन्धिः भवति तत्र? सुवर्णदीर्घसन्धिः इति वयं तु जानीमः एव, सरलमेव. अतः तत्र अच् सन्धिः भवति, कुत्रचित् केवलं वर्णमेलनमस्ति, कुत्रचित् अच् सन्धिः जायते स्म. उदाहरणार्थं अन्यच्च एध मया अत्र अद्यैव लिखितम् एध इति एध इति धातुः अ इति विकरणप्रत्ययः एध इते नाम द्विवचने लटि तत्र एध इते तत्र द्वयोः मेलनेन एध प्लस् इते तत्र गुणसन्धिं कृत्वा एधेते इति भवति स्म. अतः कुत्रचित् वर्णमेलनं भवति स्म, कुत्रचित् अच् सन्धिः भवति स्म, किन्तु हल् सन्धिः न कुत्रापि भवति स्म, केवलं दाधा इति इत्यनयोः धात्वोः प्रसङ्गे, अन्यत्र न. किमर्थमिति, यदि धातुः अजन्तधातुः अस्ति, उदाहरणार्थं भूधातुः, भूधातुः अस्ति, दीर्घकारान्तधातुः अस्ति, तत्र विकरणप्रत्ययः अ, विकरणप्रत्ययः अक् अशापति, किन्तु य विकरणप्रत्ययः यः कोऽपि भवतु, नाम तत्र यदा अजन्तधातुः अस्ति तत्र हल् सन्धिः न सम्भवति एव, हल् सन्धिः न सम्भवति तत्र. अतः धातुः नाम स्थलद्वयमस्ति अत्र प्रक्रियायां, तत्र धातुविकरणप्रत्यययोः मेलनम्, अङ्गं निष्पन्नम्, अनन्तरम् अङ्गतिङ्प्रत्यययोः मेलनम् इति स्थलद्वयं. तत्र धातुः अजन्तधातुः अस्ति चेत् हल्सन्धिः न भवति, धातुः हलन्तधातुः अस्ति चेत् बुध इति धातुः बुध हलन्तधातुः तु अस्ति, किन्तु अनन्तरं तत्र द्वादिगणे अस्ति, अतः सब् विकरणप्रत्ययः केवलं योजनम् अस्ति. अतः पश्यामः यत् एतावता विकरणप्रत्ययप्रसङ्गे केवलं वर्णमेलनम् अथवा केवलं वर्णमेलनम् अस्ति, न कुत्रचित् सन्धिः अपि अस्ति, भू अ भव अच् सन्धिः भवितुमर्हति अथवा वर्णमेलनम् इति अस्ति. इदानीं कुत्रचित् विकरणप्रत्ययः हलादिः अस्ति, हलादिविकरणप्रत्ययः अस्ति, उदाहरणार्थं दिवादिगणे य इति अस्ति य, अनन्तरं स्वादिगणे नु इति अस्ति श्नु, अनुबन्धलोपे नु इति अवशिष्यते, अनन्तरं क्रियादिगणे ना इति अस्ति. एतादृशाः गणाः सन्ति येषां हलादि विकरणप्रत्ययः अस्ति, किन्तु गतपर्याये गतसत्रे अस्माभिः दृष्टं यत् केचन अत्र षड्विंशतितमं करपत्रं पश्यन्तु, तत्र आरम्भे लिखितमस्ति केचन हल् वर्णाः सन्ति येषां योजनेन, नाम प्रत्ययस्य प्रथमवर्णः एते हलाः सन्ति चेत् अपि हल् सन्धिः न भवति. एते वर्णाः के? यर वम न इति लिखितमस्ति तत्र यरवमान. अतः तत्र दिवादि य यकारः अस्ति, सुवादि नकारः नु, अनन्तरं तत्र क्रियादि ना इति अस्ति, रुधादि अपि रुधादि तु भिन्नम् अस्ति, तत् न अनन्तरं चर्चयामः, किन्तु तत्र नकारः अस्ति, यकारः अस्ति, अतः हल् सन्धिः, यद्यपि धातुः हलन्तधातुः बुध न बुध तु तत्रैव अस्ति अदादिग भुवादिगणे, किन्तु यूद् इति धातुः यूद् 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 इति दिवादिगणे यूद् अपि च य तत्र धकारः अस्ति, धकारः अस्ति यकारः, किन्तु तत्र केवलं मेलनमस्ति, यतोहि यकारादि प्रत्ययः अस्ति, अतः हल् सन्धिः न भवति, न सम्भवति इति. अतः एतावता अस्माभिः न दृष्टम्. इदानीम् अङ्गं स्वीकुर्मः एकनिमेषः. अङ्गमस्ति, अनन्तरं तिङ्प्रत्ययः अस्ति, नाम धातुविकरणप्रत्यययोः मेलनेन न कुत्रापि हल्सन्धेः अवसरः भवति स्म. इदानीम् अङ्गमस्ति, तिङ्प्रत्ययः अस्ति, तत्र कीदृशी स्थितिः अस्ति? तत्र षड्विंशतितमे करपत्रे लिखितमस्ति, षड्विंशे करपत्रे, यत् प्रत्ययस्य प्रथमवर्णः तथा ध स इत्येषु वर्णेषु अन्यतमः अस्ति चेत् तत्र हल्सन्धिः सम्भवति. तर्हि एतावता अस्माभिः न दृष्टं किमर्थं हलन्तधातवः तु सन्ति, अपि च थकारादि सकारादि तिङ्प्रत्ययाः अपि सन्ति. तर्हि हल्सन्धिः किमर्थं न भवति स्म? वयं तु जानीमः एव मध्ये यत्र विकरणप्रत्ययः अस्ति तत्र शप् शपि अ इति अस्ति अकारान्त, यद्यपि भूद् धातुः अस्ति भूद्, किन्तु तत्र अ अस्ति मध्ये अ उपविशति, अतः यत्र पूर्वम् अकारः अदन्तमङ्गमस्ति चेत् अकारान्तमङ्गमस्ति चेत् तत्र हल्सन्धेः अवसरः न भवति एव. यद्यपि ति इति अस्ति, तितः अन्ति खलु ति, तत्र तकारादि प्रत्ययः अस्ति, किन्तु बोध ति तत्र अदन्तम् अङ्गमस्ति, अतः हल्सन्धेः अवसरः तु न भवति एव इति अवगन्तव्यम् अस्माभिः. एतावता किमर्थम् अवसरः न प्राप्तः इति. अस्तु, तर्हि एतावता एतादृशी गतिः सर्वत्र भवति स्म. अङ्गम् अदन्तं वा भवतु, नाम अकारान्तम् अदन्तं भवति वा अनदन्तं भवति चेदपि, अङ्गम् अनदन्तम् अस्ति किन्तु उकारान्तं स्वादिगणे उकारान्तम् अङ्गम् अस्ति, क्रियादिगणे आकारान्तम् अङ्गम् अस्ति, नाम क्रीणा प्लस्ति आकारान्तम् अङ्गं क्रीणाति, केवलं वर्णमेलनमस्ति, सन्धिकार्यं तु नास्ति एव तत्र. तत्र आप्नोति गुणकार्यं कृत्वा आप्नोति, केवलं योजनमस्ति, तत्र हल्सन्धेः अवसरः तु नास्ति एव. तर्हि कुत्र भवति हल्सन्धेः अवसरः, कुत्र भवति इति प्रश्नः अस्ति. यदा वयम् अदादिगणस्य रूपाणि दृष्टवन्तः, अपि च जुहोत्यादिगणस्य, तस्मिन् समये वयं केवलम् अजन्तधातूनां रूपाणि दृष्टवन्तः तावता. किमर्थम्? उत्तरं तु वयं जानीमः, यतोहि तत्र अदादिगणे शपः लुक् भवति, नाम लोपः भवति, गच्छति एव, अतः गच्छति चेत् तत्र धातुः हलन्तधातुः अस्ति चेत् तर्हि तित्तस् झि ति ति इति अस्ति, हलन्तधातुः अस्ति, मध्ये विकरणप्रत्ययः गच्छति एव, अतः तत्र हल्सन्धेः अवसरः अस्ति पदादिगणे. पुनः जुहोत्यादिगणे, जुहोत्यादिगणे शपः श्लु, अस्तु वदामि, अदादिगणे उदाहरणार्थम् अत् इति धातुः अदादिगणे अद् इति धातुः प्रथमधातुः अस्ति अद्, तर्हि तत्र अद् अस्ति, दकारः अस्ति, अद् दकारः, ति तकारः, तत्र मध्ये विकरणप्रत्ययः तु नास्ति, अतः तत्र दकारस्य स्थाने तकारः आगच्छति, तत्र हल्सन्धिः अस्ति, अतः अस्माभिः हल्सन्धिविषये किञ्चित् ज्ञानं प्राप्तव्यमस्ति पदादिगणस्य कृते. पदादिगणस्य कृते अपेक्षितमस्ति अति. बालकः अति, तत्र खादति इति अर्थः. अद् अस्ति अति, अतः दकारस्य स्थाने तकारः. किमर्थं वयं तु जानीमः, किन्तु तत्र हल्सन्धेः अवसरः. दकारस्य स्थाने तकारः, तत्र चर्त्वं चर्त्वादेशः भवति. अग्रे जुहोत्यादिगणे, जुहोत्यादिगणे तत्र पुनः विकरणप्रत्ययस्य लोपः भवति. श्लु इति वदामः, अतः तत्रापि धातुः हलन्तः अस्ति चेत् अपि च प्रत्ययस्य प्रथमवर्णः तथा ध स अस्ति चेत् तत्र हल्सन्धेः अवसरः अस्ति. कीदृशविकारः, कीदृशपरिवर्तनं भविष्यति इति अस्माभिः ध्येयं तत्र. पुनः रुधादिगणे, रुधादिगणे सर्वे धातवः हलन्ताः सन्ति, अतः तत्र प्रचुररूपेण तत्र हल्सन्धिः भवति. अस्तु, अतः सन्दर्भः अस्माभिः ज्ञातः. सन्दर्भः कः? सावधातकप्रकरणे तत्र अदादिगणे, ज्योत्यादिगणे, रुधादिगणे धातुः हलन्तः अस्ति चेत् अपि च प्रत्ययस्य प्रथमवर्णः तकारः, थकारः, धकारः, सकारः चेत् तर्हि तत्र हल्सन्धेः अवसरः अस्ति. अग्रे षड्विंशेः करपत्रे लिखितमस्ति, तत्र आवलिः दत्तं प्रथमे पुटे. तत्र यद्यपि धातुः हलन्तः अस्ति, सर्वत्र हल्सन्धिः भविष्यति एव इति नास्ति खलु. नाम प्रत्ययस्य प्रथमवर्णः स्वरः अस्ति चेत् अथवा तत्र य र व म न अस्ति चेत् तत्र केवलं वर्णमेलनमस्ति. तत्र उदाहरणानि दत्तानि सन्ति. अत्र कानिचन द्रष्टव्यानि शीघ्रमेव. रुन्द् अन्ति, रुधन्ति, धकारान्तधातुः अस्ति ध. अपि च तत्र अचादिप्रत्ययः अस्ति. यत्र कुत्रापि एव एतादृशी गतिः अस्ति तत्र केवलं वर्णमेलनमस्ति. अन्यच्च पुनः अधोभागे लिखितमस्ति, तत्र रुन्द् पुनः अस्ति वः, रुन्ध्वः, तत्र वकारः हल् अस्ति, किन्तु य र व म न इत्येषु अन्यतमः अस्ति, कारणतः केवलं योजनम् अस्ति. अतः अस्माकम् अवधानं कस्मिन् विषये? सार्वधातुकप्रकरणे धातुः अदादिगणे, ज्योत्यादिगणे, रुधादिगणे अस्ति चेत् अपि च स च धातुः हलन्तः अस्ति चेत् अपि च प्रत्ययस्य प्रथमवर्णः तथा ध स अस्ति चेत् तत्रैव अस्माकम् अवसरः अस्ति. अस्तु, अग्रे गतसत्रे अस्माभिः दृष्टं लङ्लकारे, नाम तत्र प्रथमपुरुषस्य एकवचने लङ्लकारे तत्र त इति एव अस्ति, त. अनन्तरं मध्यमपुरुषे एकवचने स, नाम केवलम् एकः एव वर्णः अस्ति, त स. उदाहरणार्थं गच्छति, ये नूतनाः सन्ति तेभ्यः अहं शीघ्रमेव वदामि. गच्छति इति लङ्लकाररूपं खलु, बालकः अगच्छत्. अपि च त्वम् अगच्छः, बालकः अगच्छत्, त्वम् अगच्छः, तत्र बालकः अगच्छत् तत्र प्रत्ययः अस्ति त, त इति एव. अपि च मध्यमपुरुषे स, सकारस्य स्थाने विसर्गः भवति, रुत्रविसर्गौ. अतः तत्र किमर्थं पृथक्तया दृष्टम् अस्माभिः? पृथक्तया दृष्टम् अस्माकम् अग्रिमकरपत्रमस्ति धातुपाठे हल् सन्धिः द्वितीयभागः, यत्र प्रत्ययस्य प्रथमवर्णः अस्ति सकारः. तर्हि लङ् लङि सप्रत्ययस्य प्रथमवर्णः सकारः एव, किन्तु तत्र भेदः वस्तुतः तत्र षड्विंशे करपत्रे यः पाठः अस्ति सः अपवादभूतपाठः अस्ति. नाम पाणिनीयव्याकरणे सर्वत्र सर्वत्र सामान्यमस्ति अपि च अपवादः अस्ति, विशेषः सामान्यं विशेषः. तर्हि अस्मिन् सप्ताहे इदानीं सामान्यमस्ति, गतसत्रे विशेषः आसीत्, नाम अपवादः जातः. किमर्थमिति चेत् यद्यपि सादि नाम सकारादिप्रत्ययः अस्ति लङ्लकारस्य मध्यमपुरुषस्य स इति, तथापि अपवादः यतोहि तत्र अपृक्तसंज्ञा अस्ति. अपृक्त वयं दृष्टवन्तः खलु यत्र प्रत्ययस्य एक एव वर्णः अस्ति, प्रत्यये एक एव वर्णः अस्ति चेत् अपृक्तसंज्ञा भवति. अपि च तत्र एकं सूत्रमासीत् हल्ङ्याभ्यो दीर्घात् सूतिरस्य अपृक्तं हल् नाम हल् परतः तत्र अपृक्तसंज्ञकप्रत्ययस्य लोपः भवति स्म, अतः एव अपवादः. तस्मिन् पाठे अस्माकं सर्वम् अपवादभूतमासीत् यतोहि तत्र त स इत्यनयोः तत्र लोपः भवति स्म, लोभः भवति स्म सर्वत्र इति गतसत्रे अस्माभिः दृष्टं. तर्हि तत्र सोपानत्रयम् अस्माभिः दृष्टं. प्रथमसोपानं तप्रत्यय सप्रत्ययन् इति अनयोः लोपः भवति स्म, यत् अस्मिन् पाठे यत् वयं करिष्यामः इदानीं तस्मिन् पाठे न भवति एव. केवलं किमर्थं केवलं प्रत्यये एक एव वर्णः अस्ति, अपृक्तसंज्ञा भवति, अतः धातुः हलन्तः अस्ति चेत् तत्र प्रत्ययस्य लोपः भवति, गच्छति एव. तत्र द्वितीयसोपानमासीत् द्वितीयसोपानमासीत् यत् यद्यपि तकारः अगच्छत् सकारः अगच्छत् नाम प्रत्ययः अगच्छताम् तथापि आगतवन्तौ प्रथमतया इति कारणतः तत्र सुप्तिङन्तं पदम् इत्यनेन पदं पदसंज्ञा जाता. तत्र अस्माकं कार्यं जातं. तेषु वस्तुतः सारल्यं पुनः संक्षिप्तरूपेण शीघ्रमेव संक्षिप्तरूपेण वदामि किं किं कार्यमासीत् तत्र. अनन्तरं तृतीयसोपानमासीत् सन्धिः, जस्त्वसन्धिः चक्त्वसन्धिः. किमर्थं अयं सन्धिः भवति तत्र? यतोहि तत्र पदान्ते अस्ति, पदान्ते इति कारणे. किमर्थं? यतोहि तत्र गतौ द्वौ प्रत्ययौ गतौ एव इति कारणतः तत्र पदान्ते अस्ति, अतः जष्त्वं भवति स्म चर्त्वं भवति स्म. इदानीम् अस्माकम् अवधानं नापेक्षितं तत्र. किन्तु द्वितीये सोपाने गतसत्रे द्वितीयसोपाने नाम कीदृशं कार्यं भवति स्म तत्र? तत्र कार्यत्रयमासीत्. प्रथमसोपानं जातं नाम तत्र त इति प्रत्ययः स इति प्रत्ययः अगच्छत्. अत्र उदाहरणानि द्वितीयपुटे उदाहरणानि दत्तानि सन्ति. अरुणद् त अरुणद् तत्र गतसत्रस्य द्वितीयपुटे पश्यन्तु तत्र शीघ्रमेव. अतिसरलमस्ति, शीघ्रमेव पश्यामः. अत्र यावन्तदातवः सन्ति तत्र सर्वत्र हलन्तदातुः अस्ति चेत् तत्र त प्रत्ययः गच्छति, स प्रत्ययः गच्छति, अभिनद् त प्रकारः गच्छति, अभिनद् इति एव तिष्ठति. तर्हि तस्यां दशायां यत्र त स गच्छतः तस्यां दशायां हलन्तदातुः एव तिष्ठति. इदानीं धातुः नास्ति अपि च पदमस्ति, तिङ् चुक्तिङन्तं पदम् इति अनेन पदं जातमस्ति. तस्यां दशायां कार्यत्रयं, यद्यपि बहूनि कार्याणि प्रदर्शितानि सन्ति अस्मिन् करपत्रे, मूले केवलं कार्यत्रयमस्ति. प्रथमं कार्यमस्ति यत् एतत् पदं संयोगान्तं पदमस्ति, नाम अन्ते यस्य अन्ते संयोगः अस्ति सः संयोगान्तं पदमस्ति. संयोगान्तं पदमस्ति चेत् तत्र अन्तिमसंयोगः नाम कः? यत्र द्वयोः व्यञ्जनयोः मेलनमस्ति, मध्ये स्वरः नास्ति, तत्र संयोगः इति उच्यते खलु. नाम अन्त तत्र न नकारतकारयोः संयोगः अस्ति, अन्त नकारतकारयोः मेलनमस्ति, मध्ये स्वरः नास्ति, अतः संयोगः इति उच्यते. अत्र उदाहरणं दत्तमस्ति अबाबन्ध इति तृतीयपुटे लिखितमस्ति अबाबन्ध. तत्र नकारधकारयोः मेलनमस्ति, मध्ये स्वरः नास्ति, अतः संयोगः अस्ति. तर्हि अत्र यदि संयोगः अस्ति, संयोगस्य द्वितीयसदस्यस्य लोपः भवति इति सामान्यमस्ति. अपवादः अस्ति यत् प्रथमसदस्यः सकारककारः अस्ति चेत् तत्र प्रथमसदस्यस्य लोपः भवति, न तु द्वितीयस्य. किन्तु सिद्धान्तः अस्ति संयोगकार्यं, पदान्ते संयोगः अस्ति चेत् सामान्यमस्ति द्वितीयसदस्यस्य लोपः. अपवादभूतस्थितिः अस्ति कुत्रचित् प्रथमसदस्यस्य इति प्रथमं कार्यं. द्वितीयं कार्यमस्ति यत् पदान्ते च वर्गीय कश्चन वर्णः अस्ति चेत् अग्रिमे पुटे पश्यामः. अत्र चोः कुः, अग्रिमे पाठे अपि चोः कुः इत्यस्य कार्यमस्ति. तत्र अन्तिमवर्णः अस्ति च वर्गीयः एवमस्ति चेत् तर्हि तस्य स्थाने कवर्गीय आदेशः भवति इति द्वितीयं कार्यम्. उदाहरणार्थम् अवच् इति लिखितमस्ति अत्र अवच्, तत्र चोः कुः इत्यनेन च चकारस्य स्थाने ककारः, क्रमेण च छ झ इत्येषां स्थाने कख गघ इति अस्ति. पदान्ते इदं सूत्रं भवति पदान्ते झलि च. अस्मिन् पाठे लङि तत्र सर्वत्र पदान्ते अस्ति. किमर्थं पदान्ते? यतोहि तकारः तप्रत्ययः गच्छति, सप्रत्ययः गच्छति, अतः धातोः अन्तिमवर्णः पदान्ते अस्ति, अतः पदान्ते. किन्तु अग्रिमे पाठे वयं आरम्भं करिष्यामः अद्य, तत्र झलि इत्यस्य प्रसङ्गः भवति, झलि. यतोहि सकारः यत्र प्रत्ययस्य प्रथमवर्णः सकारः अस्ति, सकारः झलि अस्ति, अतः चोः कुः तत्रापि भवति. अनन्तरं नाम तत्र अपवादभूतसूत्रमस्ति यत्र एते धातवः सन्ति, अग्रिमे दि इति लिखितमस्ति, तत्र च वर्गीयस्य स्थाने कवर्गीय वर्ण आदेशः भवति सर्वत्र. किन्तु केचन धातवः सन्ति यत्र एवं नास्ति इति द्वितीयकार्यस्य अपवादः. अतः प्रथममस्ति यदि पदं संयोगान्तम् अस्ति, द्वितीयमस्ति पदस्य अन्ते च वर्गीयव्यञ्जनमस्ति, तृतीयमस्ति हकारान्तदातुः अस्ति. तर्हि सामान्यं तत्र अस्ति. इदानीम् अग्रिमे पुटे पश्यामः तत्र हो झः इति सामान्यमस्ति. तत्र इदानीं स्थितित्रयमस्ति, संयोगः अस्ति, चवर्गीयवर्णः अस्ति, अपि च हकारान्तधातुः अस्ति. प्रत्येकस्यां स्थितौ सामान्यमस्ति, अनन्तरम् अपवादः अस्ति. यत्र संयोगः अस्ति तत्र संयोगान्तस्य लोपः इति सूत्रं सामान्यमस्ति, अनन्तरं स्कोः संयोगाद्योरन्ते च इति अपवादः अस्ति. नाम सामान्यतया संयोगान्तस्य लोपः वदति यत् द्वितीयस्य सदस्यस्य लोपः भवति, किन्तु प्रथमसदस्यः सकारः ककारः चेत् तस्यां दशायां प्रथमसदस्यस्य इति सामान्यं विशेषः. पुनः यत्र पदान्ते च वर्गीयव्यञ्जनमस्ति, सामान्यनियमः अस्ति यत् तस्य स्थाने कवर्गीयव्यञ्जनं कवर्गीयवर्णः भवति आदेशः. किन्तु अपवादः अपि अस्ति, इदानीमेव उक्तं केचन धातवः सन्ति यत्र च वर्गः न भवति, अपि च मूर्धन्य षकारादेशः भवति. इदानीम् अन्तिमतृतीयस्थितिः अस्ति हकारान्तधातुः अस्ति चेत् अग्रे तत्र इ इति लिखितमस्ति, लर् इ तत्र सामान्यमस्ति होढः. तत्र हो इति षष्टि अन्तं पदमस्ति, ढ इति प्रथमान्तमस्ति, अतः हकारस्य स्थाने ढकारादेशः भवति इति सामान्यं. कस्यां दशायां? पदान्ते झलि वा. अत्र लङि तत्र त स इत्यनयोः लोपः भवति, अतः पदान्ते अस्ति. किन्तु अग्रिमे पाठे यत् वयम् आरम्भं करिष्यामः इदानीं, तत्र पदान्ते नास्ति, यतोहि सकारस्य नाम सकारादिप्रत्ययस्य लोपः न भवति, अतः झलि इत्यस्य प्रसङ्गः तत्र अस्ति. अत्र पदान्ते उदाहरणम् अत्र दत्तमस्ति, अत्र नोः तत्र हकारान्तधातुः अस्ति, तकारस्य लोपः भवति, पदान्ते अस्ति हो ढः इत्यनेन तत्र हकारस्य स्थाने ढ इति सामान्यमस्ति. अनन्तरं स्थितित्रयं दत्तमस्ति अत्र, नाम हकारधातुः अस्ति चेत् किन्तु प्रथमवर्णः दकारः अस्ति चेत् इदं सूत्रमपि अस्माभिः ज्ञातव्यमस्ति, एफ़् लेटर् एफ़् तत्र दादेहे धातोः घः, दादेर्धातोर्घः इति सूत्रमस्ति. तत्र हकारान्तधातुः अस्ति किन्तु धातोः प्रथमवर्णः अस्ति दकारादि हकारान्तधातुः अस्ति, दकारादि हकारान्तधातुः अस्ति चेत् लङ्लकारे प्रथमपुरुषस्य एकवचने, मध्यमपुरुषस्य एकवचने च तत्र अस्य सूत्रस्य प्रसक्तिः भवति. नाम तत्र हकारस्य स्थाने घकारः न अपि तु घकारः भवति, घकारादिशः भवति इति अपवादः अस्ति. सामान्यनियमः अस्ति हकारस्य स्थाने ध, अत्र अपवादः अस्ति हकारस्य स्थाने घ. अत्र पदान्ते अथवा झलि. पुनः नाम चोः कुः, तत्र कुत्र नाम सन्दर्भः अस्माभिः स्मर्तव्यः अस्ति. तत्र अपि पदान्ते झलि च, झलि वा, अत्रापि पदान्ते झलि वा. लङः प्रसङ्गे तत्र पुनः वदतु प्रश्न जातो वा. तर्हि अत्र लङि पदान्ते अस्ति यतोहि तकारः गच्छति, सकारः गच्छति, गच्छति एव, अतः अत्र पदान्ते अस्ति. अन्यच्च जि एच् तत्रापि अपवादभूत धातवः सन्ति, एतत् सर्वं न द्रष्टव्यं पुनः. किन्तु सामान्यमस्ति यत् स्थितित्रयमस्ति, संयोगान्तपदमस्ति चेत् किं भवति, अनन्तरं च वर्गीय वर्णः अस्ति चेत् अन्ते तत्र स्थितिः द्वितीयस्थितिः अस्ति, अपि च तृतीयस्थितिः अस्ति हकारान्तधातुः अस्ति, किं किं भवति इति अस्माभिः दृष्टम्. अत्र सामान्यस्थितिः अस्ति अपि च अपवादः. इदानीम् अग्रे गच्छेम अद्यतनविषयः. किञ्चित् पुनस्मरणमपेक्षितमासीत् इति अहं मन्ये. इदानीं सप्तविंशः पाठः, तत्र हल्सन्धिः. इदानीम् अस्माभिः दृष्टं यत् लङ्लकारे तप्रत्ययस्य सप्रत्ययस्य च लोपो भवति इति कारणतः कार्यं किञ्चित् भिन्नम् अस्ति. भिन्नं किं? प्रथमतया लोभः भवति प्रत्ययस्य, पूर्णतया लोभः भवति. अनन्तरं कार्यत्रयं भवति, कार्यत्रयं संयोगान्तस्य अपि च वर्गीयवर्णस्य अपि च हकारस्य तत्र भवति स्म. अपि च पदान्ते अस्ति इति कारणतः जष्ट्व चट्व सन्धि भवतः इति. इदानीं यत्र सकारादिप्रत्ययः अस्ति, सकारादिप्रत्ययः अस्ति, अपि च हलन्तधातुः अस्ति. हलन्तधातुः इत्युक्ते अदादिगणे, केषु गणेषु? अदादिगणे, ज्योत्यादिगणे, रुधादिगणे च. तत्र सार्वधातुकप्रकरणे एतादृशी स्थितिः अस्ति चेत् तत्र तत्र हल् सन्धिः भवति. अस्तु, तर्हि इदानीं लर् बि इति पश्यामः. हलन्तधातुभ्यः सादिप्रत्ययः चेत् षट् सम्भावनाः. तत्र तत्र क्षम्यतां, हलन्तधातुः अस्ति, हलन्तधातुः अस्ति, अपि च प्रत्ययस्य प्रथमवर्णः सकारः, किन्तु लङ्लकारे नास्ति. लङ्लकारस्य स प्रत्ययः न, तं प्रत्ययं विहाय यः कोऽपि सकारादिप्रत्ययः भवतु नाम अस्मिन् प्रसङ्गे आयाति इति क्रमः. तर्हि षड् सम्भावनाः सन्ति. नाम तत्र धातोः अन्तिमवर्णः क ख ग घ अथवा च छ ज झ ष ष इति एते वर्णाः, एतेषु वर्णेषु कश्चन अस्ति चेत् तर्हि एतेषां वर्णानां स्थाने ककारः, ककारादेशो भवति, ककारः इति प्रथमस्थितिः अस्ति. तत्र खरि च इति कार्यं करोति, अपि च चोः कुः नाम सुलभमस्ति. कख ग घ अस्ति अस्ति चेत् तत्र खरि च इति प्रथमादेशः भवति चर्त्वम्. अनन्तरं च छ ज झ तत्र चोः कुः इत्यनेन कवर्गीयवर्णादेशः, अनन्तरं खरि च. अत्यन्तं सुलभमस्ति. शा शा तत्र अग्रे गत्वा वयं सूत्राणि पश्यामः. अनन्तरं द्वितीयस्थितिः अस्ति, धातोः अन्तिमवर्णः अस्ति तथ दध तवर्गीय. तत्रापि खरि च इत्यनेन चट्वसन्धिः भवति, चट्वसन्धिः भूत्वा तत्र तकारादेशो भवति. प्रथमसदस्यादेशः भवति तवर्गस्य. पवर्गीयव्यञ्जनं व्यञ्जनमस्ति चेत् पफ बभ, तत्रापि तादृशी गतिः अस्ति. खरिचातीनेन प्रथमसदस्यादेशो भवति, पकारः इति. अनन्तरं न म अस्ति चेत् तत्र ये सामान्य हल्सन्धिविषये जानन्ति, तत्र नश्चापदान्तस्य झलि इति एकं सूत्रमस्ति. तत्र झलि, झल् प्रत्याहारे परे तत्र नकारस्य स्थाने मकारस्य स्थाने च अनुस्वारादेशो भवति, अनुस्वारः. अग्रे एतत् सर्वं दत्तमस्ति. अनन्तरं सकारः, सकारः अस्ति चेत् धातोः अन्तिमवर्णः, तत्र सावधातुकप्रत्यये परे केवलं वर्णमेलनम्, आदुधातुकप्रत्यये परे तत्र तकारादेशो भवति, सकारस्य स्थाने तकारः भवति। अपि च हकारः अस्ति चेत् तत्र कार्यचतुष्टयम् अस्ति, अग्रे पश्येम। किन्तु सर्वे व्यञ्जनानि अत्र दत्तानि सन्ति। अत्र अदादिगणे, ज्योत्यादिगणे, रुधादिगणे च एतेषु गणेषु हलन्तदातवः तु सन्ति, किन्तु कुत्रचित् ककारान्त, खकारान्त, गकारान्त, गकार, एते सर्वे वर्णाः न अन्तर्भूताः एतेषु त्रिषु गणेषु इति कारणतः कुत्रचित् यङ्लुक् रूपाणि तत्र लभ्यन्ते, तादृशान्त धातुः लभ्यते सर्वत्र तत्र। अतः बहुत्र मात्रा एतादृशधातवः स्वीकृताः। इदानीं कस्मिन् गणे धातुः अस्ति, कीदृशरूपमस्ति इति अस्माकं तत्र तस्मिन् विषये अस्माकं चिन्ता न स्यात्, केवलं सन्धिविषये भवेत्। तर्हि सि इति लर् अस्ति, तत्र अग्रे गच्छेम। प्रथमतया कीदृशभेदः, कीदृशपरिवर्तनं भवति, सर्वत्र ककारादेशो भवति इति उक्तं। तत्र द्वितीये पुटे आवलिः दत्ता अस्ति। तत्र प्रथमं एकं द्वे त्रीणि चत्वारि पञ्च उदाहरणानि कवर्गीय उदाहरणानि सन्ति, अनन्तरं चत्वारि उदाहरणानि चवर्गीय, अनन्तरं षकारान्तदातुः अपि च षकारान्तदातुः। पश्यामः किं भवति। शक् स्यति नाम लृट् लकारे, शक् स्यति, तत्र ककारः तु अस्ति एव, ककारस्य स्थाने ककारादेशो भवति, खरि च अतीनेन ककारादेशो भवति, तत्र न किमपि दृश्यते परिवर्तनदृष्ट्या। अतः शक् स्यति, अत्र सकारस्य स्थाने मूर्धन्य षकारादेशो भवति। बहुत्र एतादृशकार्यं भवति। सूत्रं वयं दृष्टवन्तः पूर्वम्, आदेशप्रत्यययोः इति सूत्रम् अधः लिखितमस्ति। किन्तु नाम आदेशप्रत्यययोः अत्र अस्माकम् अवधानं भवेत् यत् सकारादिप्रत्ययः अस्ति चेत् तस्मात् पूर्वं कवर्गीयव्यञ्जनमस्ति चेत् तर्हि सकारस्य स्थाने मूर्धन्य षकारादेशो भवति। तर्हि शक्ष्यति, शक्ष्यति इति भवति। सर्वत्र अत्र अस्मिन् गणे नाम खख गघ छ झ श, सर्वत्र ककारादेशो भवति, अनन्तरं सकारः तु अस्ति एव, क प्लस् स क्ष इति वर्णः भवति सर्वत्र। लिलेख् सि खकारस्य स्थाने अपप्राणककारः भवति, लिलेख् अपि च आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने ष, लिलेक्षि। तात्वङ् गकारः अस्ति, गकारः कवर्गे अस्ति, अतः तत्र खरि च इत्यनेन गकारस्य स्थाने ककारादेशो भवति। खरि च किं भवति, खरि परे झलः स्थाने चरादेशो भवति इति खरि च। छत्वसन्धिं वयं तु जानीमः, खर् इत्युक्ते प्रत्येकं वर्गस्य प्रथमसदस्यद्वयम् अपि च सशस इति खर् अस्ति। तर्हि अत्र सकारः अन्तर्भूतः अस्ति खरि, खरि परे झलः स्थाने चरादेशो भवति। झल् इति सर्वे अननुनासिकवर्गीयव्यञ्जनानि इति झल्। अतः तत्र ककारः अन्तर्भूतः अस्ति, खकारः, गकारः अपि अन्तर्भूतः, वर्गीयव्यञ्जनानि, अतः तत्र प्रथमादेशो भवति। चर् इत्युक्ते प्रथमवर्गस्य प्रथमसदस्यः, कवर्गस्य ख, च वर्गस्य च इत्यादयः आदेशाः भवन्ति। अनन्तरं वच् पश्यामः अधः वच् पृच् पृच् इति अस्ति. तत्र तत्र किं भवति, हा अस्तु अस्तु अग्रे अग्रे गच्छेम. नाम अत्र सर्वत्र कञ्चन उदाहरणानि दन्ति दत्तानि सन्ति, किन्तु खख गघ सारांशः अस्ति यत् खख गघ तत्र किं भवति, खरिच इत्येन प्रथमसदस्यादेशो भवति, अपि च आदेशप्रत्ययोः प्रत्यययोः इत्यनेन सकारस्थाने श. किमर्थं, यतोहि तत्र तस्मात् पूर्वं कवर्गीय कश्चन वर्णः अस्ति, खख गघ सर्वे कवर्गीय कवर्गीयव्यञ्जनानि सन्ति इति कारणतः अत्र प्रसक्तिः अस्ति. प्रश्नः अस्ति चेत् पृच्छन्तु.
प्रश्नः अस्ति, काख गग गग करी करी नास्ति, केवलं प्रथम खाख एव करी अस्ति सः.
हा न न न, सूत्रस्य अर्थः कः इति चिन्तयामः. अत्र खरि इत्युक्ते खरि च इति सूत्रं किं भवति, किं वदति, खरि परे झलः स्थाने चरादेशो भवति. खरि परे अनन्तरं खर् स्यात् अनन्तरं. अत्र अत्र उदाहरणात् उदाहरणं दत्तमस्ति, पश्यामः अत्र
उदाहरणं
त्यग् अत्र त्यग् 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 स्यति त्यग् स्यति तु परे कः वर्णः अस्ति, गकारात् परतः कः वर्णः अस्ति, त्यग् स्यति, अत्र परे सकारः अस्ति, परे सकारः अस्ति, अतः कवर्णीय कवर्गीय तत्र खर् प्रत्याहारे सकारः अस्ति. नाम ग ग गकारः खरि तु नास्ति, किन्तु तत्र अस्माकम् अवधानं नास्ति, तत्र गकारः खरि अस्ति न वा, न न न, तत्र खरि परे झलः स्थाने चर्. अत्र खरि परे इत्युक्ते सकारः परे अस्ति, गकारः झलि अस्ति, अतः खरि परे खर् अनन्तरम् अस्ति चेत् झल् स्थाने चर् आदेशः, नाम प्रथमसदस्य आदेशो भवति, अतः ककारस्य स्थाने ककारादेशः भवति, चर्त्वसन्धिः. अवगतम्?
आमाम्.
अस्तु अस्तु अग्रे. तदनन्तरं च छ झ झ, तत्र चोः कुः इति अस्माभिः पूर्वं दृष्टं, चोः कुः इति अस्माभिः दृष्टं, तत्र च वर्गस्य स्थाने कवर्गादेशो भवति, पदान्ते झलि च, पदान्ते लङि अस्माभिः दृष्टं, तत्र सकारः गतः आसीत् अतः पदान्ते आसीत्, इदानीं पदान्ते नास्ति किन्तु झलि अस्ति, झलि अस्ति, अतः उदाहरणार्थं पश्यामः अत्र त्यज् स्यति इति उदाहरणं दत्तमस्ति, न न तत्र हा त्यज् स्यति इति उदाहरणमस्ति, त्यज् तत्र त्यज् स्यति, तत्र चोः कुः इत्यनेन सूत्रेण तत्र ज स्थाने ग गकारादिशो भवति, नाम क्रमेण भवति, च छ ज झ इत्येन इत्येषां स्थाने क्रमेण क घ ग घ, अतः जकारस्य स्थाने च चकारः अस्ति चेत् चकारस्य स्थाने क, छकारस्य स्थाने ख, ज स्थाने ग, झ स्थाने घ इति क्रमः अस्ति. तर्हि चोः कुः भवति, अनन्तरं खरि च, अतः प्रथमतया कवर्गीयव्यञ्जनादेशो भवति, अनन्तरं प्रथमचत्वसन्धिं कृत्वा तथा भवति. तर्हि त्यज् स्यति त्यग् स्यति, तत्र जकारस्य स्थाने गकारः, अनन्तरं गकारस्य स्थाने ककारः, त्यक् स्यति, अनन्तरम् आदेशप्रत्ययो प्रत्यययोः षट्वं भवति, प्रत्यक्षति. अनन्तरं षकारः धातोः अन्तिमवर्णः षकारः अस्ति चेत् कर्ष् इति उदाहरणं दत्तमस्ति. कर्ष् पश्यति. अत्र सूत्रमस्ति षढोः कः सि. अत्र षढोः इति षष्ट्यन्तमस्ति, कः प्रथमान्तमस्ति, सि इति सप्तम्यन्तमस्ति. नाम सकारः परे अस्ति चेत्, सकारः परे अस्ति चेत् तर्हि तस्यां दशायां षकारस्य पूर्वं षकारः अथवा ढकारः अस्ति चेत् तयोः वर्णयोः स्थाने ककारादेशो भवति. अतः कर्ष् स्यति, तत्र षढोः कः सि इत्यनेन सूत्रेण षकारादेशो भवति, तत्र ककारादेशो भवति. कर्क् स्यति आदेशप्रत्यययोः इत्यनेन षत्वं, कर्क् ष्यति कर्क्ष्यति. स्पष्टमस्ति वा?
आम्.
अस्तु. अनन्तरं षकारादेशधातुः अस्ति, क्षम्यतां, षकारान्तधातुः अस्ति चेत् तत्र पूर्वतने सत्रे अस्माकम् एतत् सूत्रं दृष्टं, चोहोकुः इत्यस्य अपवादभूतसूत्रमस्ति. चोहोकुः सामान्यतया चकारस्य स्थाने ककारादेशो भवति तत्र, किन्तु एते धातवः सन्ति व्रश्च भ्रश्च, तत्र सृज मृज इत्यादयः धातवः सन्ति. अपि च अन्ते सूत्रस्य अन्ते छ शां शः. अतः छकारान्तधातुः अस्ति, अपि च धालव्यषकारान्तधातुः अस्ति चेत् तस्य षकारस्य स्थाने मूलेन षकारादिशो भवति. तर्हि अत्र किं भवति, उदाहरणमस्ति अत्र क्रोष् इति धातुः अग्रिमे पुटे, क्रोष् तत्र षकारस्य स्थाने भुजन्यषकारादेशो भवति. अनन्तरं षढोः कः सि इत्यनेन सूत्रेण उपरि अस्माभिः दृष्टं भुजन्यषकारस्य स्थाने ककारादेशो भवति. क्रोष् स्यति तत्र मुदन्यषस्थाने तालव्यषस्थाने भुजन्यषकारादेशो भवति. अनन्तरं षस्थाने तत्र ककारादेशो भवति. अपि च आदेशप्रत्यययोः इत्यनेन सकारस्य स्थाने स्याति इत्यस्य स्थाने सकारस्य स्थाने ष. तर्हि क्रोश् स्यति क्रोह् स्यति, क्रोक् ष्यति क्रोक्ष्यति इत्यस्ति. तथैव वश् स्वसि मूर्धन्यादेशो भवति, तत्र वश् सि. अनन्तरं षकारस्य स्थाने ककारादेशो भवति. वक् सि आदेश आदेशप्रत्यययोः तेन षकारादेशो भवति. वक्षि. स्पष्टमस्ति वा?
आम्.
अस्तु, समीचीनं. तदा अग्रे वर्गस्य धातोः अन्तिमवर्णः अस्ति तथ दध इति चेत् तत्र खरिच नाम स्थितिः अस्ति अद् स्यति. उदाहरणम् अत्र लिखितमस्ति अद् स्यति. तत्र स्यति इत्यस्य प्रथमवर्णः सकारः. सकारः खर् प्रत्याहारे अस्ति. प्रत्याहारः मया वक्तव्यमासीत्, केचन नूतनाः जनाः सन्ति. अत्र माहेश्वरसूत्राणि सन्ति, तत्र माहेश्वरसूत्रेषु तत्र पश्यन्तु सकारः खर् प्रत्याहारे अस्ति. खर् प्रत्याहारे अस्ति, अतः तत्र खरिच इत्यस्य प्रसक्तिः अस्ति. खर् प्रत्याहारे अस्ति स, अपि च दकारः तत्र झलि अस्ति. अतः दकारस्य स्थाने प्रथमसदस्यादेशो भवति, दकारस्य स्थाने तकारादेशः. अतः अत् स्यति अत्स्यति. अत्र आदेशप्रत्यययोः इत्यस्य प्रसक्तिः नास्ति. सकारस्य स्थाने मूर्धन्यषकारादेशो न भवति. किमर्थं? तत्र सकारात् प्राक् तकारः अस्ति. तकारः भवति. आदेशप्रत्ययोः प्रत्यययोः कुत्र कार्यं करोति? यदि कवर्गीय कश्चन व्यञ्जनमस्ति किन्तु तकारः कवर्गी तु नास्ति, अथवा एन प्रत्याहारे एन तत्र स्वराः सन्ति अपि च हयवरल इ ऊर् ऋ ए औ ऐ औ ए ओ ऐ ओ हयवरल इति एन तत्र चकारः नास्ति, अतः अस्य सूत्रस्य प्रसक्तिः नास्ति, षकारादेशो न भवति. अस्तु, एकं वैशिष्ट्यमस्ति, अनन्तरं समापयितुं शक्नुमः. अत्र केचन धातवः सन्ति ये येषाम् अन्ते तथा दध सन्ति, अपि च येषां प्रथमवर्णः बश् बश् प्रत्याहारे अस्ति. बश् बश् नाम बगडर. जश् जश् इत्युक्ते जबगडर जबगडर, बश् इत्युक्ते बगडद. तर्हि उदाहरणार्थं बन्ध बन्ध इति धातुः, अपि च बुध् इति धातुः, धातुद्वयम्. अत्र उदाहरणं दत्तमस्ति यतोहि तत्र एकया दृष्ट्या तथा दध इत्येषु धकारः अस्ति, अतः खरि च इत्यनेन धकारस्य स्थाने प्रथमादेशो भविष्यति. किन्तु अन्यत् कार्यम् अपि अस्ति, इदं कार्यम् अस्माभिः दृष्टमपि पूर्वतने वर्गे. सूत्रमस्ति एकाचो बशो भष् झषन्तस्य स्थोः. इदं सूत्रं वदति, तस्मिन् समये मया उक्तं यत् प्रथमवर्ण आदौ अस्ति बश् बश् नाम बगडद, अपि च अन्ते झष् झबगडद अन्ते अस्ति. तर्हि उदाहरणार्थं बन्ध इति धातु बन्ध, तत्र प्रथमवर्णः अस्ति ब बशि अस्ति, अपि च ध झसि अस्ति. अतः अपि च एक एव वर्ण एक एव स्वरः अस्ति धातौ, अतः एकाच् बशादि झषन्त धातुः अस्ति. तस्यां दशायाम् अग्रे यदि सकारः अस्ति अथवा ध्वा शब्दः अस्ति ध्वा अथवा पदान्ते अस्ति, तस्यां दशायां प्रथमवर्णस्य बश् वर्णस्य स्थाने तत्र भष् आदेशो भवति, नाम भघढध इति आदेशो भवति. अतः उदाहरणं पश्यामः. तत्र बन्ध् इति अस्ति, बन्ध् स्यति. अनेन सूत्रेण एकाचो बशो भष् झषन्तस्य स्धोः इत्यनेन तत्र स्यति इत्यस्य प्रथमवर्णः सकारः, सकारः तस्मिन् अस्ति, नाम स्धोः. एकाचः धातुः अस्ति, एकाच् एक अच् अच् इति स्वरः, एकच् एक अच् यस्य सः एकाच्. एकाचः बशः बश् बशः बह् बकारः बशि अस्ति, बशि अस्ति, तस्य स्थाने भषादेशः भवति. झषन्तधातुः अस्ति चेत् झषन्तधातुः अस्ति धकारः, स्धोः परे अस्ति चेत् सकारः ध्व अथवा पदान्ते, सकारः पदे परे अस्ति स्यति. अतः तत्र तस्यां दशायां किं भवति, बकारस्य स्थाने महाप्राण आदेशः भवति भ, भन्ध स्यति, भन्ध स्यति. अयं परिवर्तनम् इदं परिवर्तनम् अस्ति चतुस्त्रिंशत् चतुश्चत्वारिंशत् इति वदामः. प्रथमतया त्रीणि चत्वारि आसीत्, इदानीं चत्वारि चत्वारि, नाम वर्गस्य कतमः सदस्यः. प्रथम आरम्भे बन्ध इति बन्ध इत्यस्मिन् बकारः वर्गस्य तृतीयबकारः पवर्गस्य तृतीयसदस्यः, धकारस्य धकारः पवर्गस्य क्षम्यतां तवर्गस्य चतुर्थसदस्यः अस्ति. अतः त्रीणि चत्वारि इति वदामः अथवा चतुस्त्रिंशत्. अनन्तरं किं भवति, पकारस्य स्थाने भकारादेशो भवति, अतः चतुश्चत्वारिंशत् भवति. आदौ चतुर्थः सदस्यः अस्ति, अपि च अन्ते चतुर्थः सदस्यः अस्ति. बन्ध स्यति. इदानीं खरि च तत्र ध अन्तिम धकारस्य स्थाने तकारादेशो भवति, अचः अतः भन्त् स्यति, भन्स्यति. भूद् स्यते तथैव भवति, भूद्बुध स्यते. अनन्तरं धकारस्य स्थाने तकारादेशो भवति, अपि च क्षम्यतां तत्र गुणः अपि अस्ति, भोद् बोध, तर्हि भोत्स्यते इति भवति. अस्तु, इति एतावत् अस्ति अद्य. तत्र प्रश्नाः सन्ति चेत् पृच्छन्तु. वस्तुतः अत्र अस्माकं भीतिः न स्यात्, यतोहि वारं कार्यं समानमस्ति. खरि च वारं आगच्छति, अपि च तत्र हकारान्त दातुम् अस्ति चेत् कानिचन कार्याणि सन्ति, तानि वारं आगच्छन्ति. अतः हल्सन्धौ अत्र अस्माकं नाम क्लेशः न भवति. कानिचन सूत्राणि सन्ति, तानि वारं आयान्ति. ये न जानन्ति, अपि च मात्रा एतत् सर्वम् एकत्रितम् अस्ति, अतः वारं आयाति. नो चेत् लघुसिद्धान्तकौमुद्याम् एतत् सर्वम् इतस्ततः अस्ति, नाम एकं सूत्रम् अत्र अस्ति, अन्यत् कार्यं तदेव कार्यं बहु दूरमस्ति, अतः तस्य तम एकत्रित्वम् इत्यस्य अभावे काठिन्यं भवति तत्र. अत्र न, अत्र एकत्रितमस्ति, अतः सौकर्यमस्ति अस्माकं. अपि च ये न जानन्ति एतत् सर्वं, तेषां कृते एतत् सर्वम् अतीव विचित्रमस्ति, विचित्रं प्रतीयते, किन्तु वारं अस्ति इति कारणतः तत्र सौकर्यम् अस्ति. अस्तु, तर्हि विरमाम.
धन्यवादः.
धन्यवादः. शुभरात्रिः.